अरण्यान्यरण्यान्यतव्याप्रेवनस्यसि कथाग्रामन्न पृच्छसि न त्वाधीरेव विन्दति यवदेयदुपावदिदित्सिकः आहारिभिरिव धावयन् अरण्या निर्महीयते उदकावाजिवादम् च्युदवेष्मेव दृश्यते उदो अरण्यानि सायम् स गणीरिव सर्जति मङ्गैरात्मयदिराङ्गैरो अवाभिरण्यान्याम् सायमकृक्षते नवारण्यानिर्हम् जन्यश्चेन्नाभिगच्छति स्वादोः फलस्य जध्वज यथा कामम् निबध्यते आञ्जनगन्धिम् दुरभिम्बह्वन्नाम गृहीवलाम् मृगाणाम् मातरमरण्यानिवसंसिषम्